अथ प्राणायामः ॐ पुण्डरीकाक्षः पुनातु ॐ पुण्डरीकाक्षः पुनातु पुनातु तिराज मनम् ॐ केशवाय नमः ॐ नारायणाय नमः ॐ माधवाय नमः
तद्विष्णो परमं पदम् सदा पश्यन्ति सूरयाः
प्रतद्विष्णुस्तवते
शुद्धिः
यस्योऽशुत्रिषु विक्रमाणेष्वधिकः यो अष्टभाजः